अखण्डमण्डलाकार व्याप्तं येन चराचरं तत्पदं दर्शितयेन तस्मै श्रीगुरुवे नमः। अखण्डमण्डलाकार व्याप्तं येन चराचरं तत्पदं दर्शितयेन तस्मै श्रीगुरुवे नमः।